सकलदेवतानां निवासभूमौ श्रीभगवतो महापुरुषस्य नामेशरोद्भवादुत्पन्नस्य
अथ कृष्णयजुर्वेदे विष्णुसूक्तम्
पञ्चाशदात्मिके व्यतीते तृतीये पदा